एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। कर्णाली प्रदेशस्य प्रदेश प्रमुखेण यज्ञराज जोशी इत्यनेन नूतन मुख्यमन्त्री पदे स्वत्वम् प्रस्तोतुम् प्रदेशसभा सदस्याः आहूताः वर्तन्ते। मुख्यमन्त्रिणा यमलाल अणेल इत्यनेन परह्य पदात् प्रदत्तम् त्यागपत्रम् स्वीकुर्वाणः प्रदेश प्रमुख जोशी नेपालस्य संविधानस्य अष्टाषष्ट्युत्तरैकशततम धारायाः द्वितीयोपधारायाः अनुसारेण द्वयोः ततः अधिकानाम् वा दलानाम् समर्थने मुख्यमन्त्रिपदे नियुक्तये स्वत्वम् प्रस्तोतुम् प्रदेशसभाः सदस्याः आहूताः वर्तन्ते। प्रदेश प्रमुखस्य जोशिनो बहुमतं प्राप्तुं समर्थस्य प्रदेशसभा सदस्यस्य स्वश्रावणमासस्य द्वादशे दिवसे सायं पञ्चवादनस्य अभ्यन्तरे मुख्यमन्त्रिपदे नियुक्त्यर्थं पूर्वकार्यम् अस्ति। शिक्षा खेलकूद मन्त्री सस्मित पोखरेल त्रिभुवन विश्वविद्यालयस्य व्यवस्थापन संकायस्य अन्तर्गतं एमबीबीएस इति चिकित्सा शास्त्राध्ययनस्य स्नातकोत्तरस्य प्रथम सत्रस्य परीक्षायाः प्रश्नपत्रस्य सार्वजनिक भवनस्य घटनायाम् संलग्नाः दोषिणः दण्डयिष्यन्ते एवेति प्रतिबद्धताम् अभिव्यनक्ति। मन्त्रालये ह्य संचारकर्मिभिः भाषमाणः मन्त्री पोखरेलः घटनायाम् अस्याम् जनद्वयम् प्रेरणा नियन्त्रणे गृहीत्वा अनुसन्धानम् विद्यमानमस्तीति असूचयत। सुशासनस्य विरोधिनः एकेऽपि जनाः दण्डयिष्यन्ते एवेति स्पष्टीकुर्वाणो मन्त्री पोखरेलः घटनायाः विस्तरेण अनुसन्धानस्य पश्चात् सत्यतथ्ये सार्वजनिकरिष्येते इति अवोचत। अनशनरतस्य प्राध्यापकस्य डाक्टर गोविन्द केसी इत्यस्य याचनायाः विषये सर्वकारीय वार्ता समूहस्य डाक्टर केसी इत्यस्य प्रतिनिधिभिश्च सह वार्ता जायमानास्ति। प्रधानमन्त्रिणः बालेन्द्र शाहस्य स्वास्थ्य परामर्शदात्रा डाक्टर जोशी अग्रवाल जेपी अग्रवाल इत्यनेन स्वास्थ्य सचिवेन डाक्टर विकास देवकोटाविदेन शिक्षा खेलकूद सचिवेन चूडामणि पौडेलेन च सहितेन समूहेन वार्ता विधीयमाना वर्तते। पूर्वाधार विकास मन्त्रिणा सुनिल लम्साल इत्यनेन विधि न्याय संसदीय विषय मन्त्रिणा सोभिता गौतम इत्यनेन च वृष्टेः कारणेन प्राप्त क्षतेः पुष्पलाल मार्गस्य लामसाङ्गु जीरो मार्गस्य च स्थलगतम् अनुगमनम् विहितम् वर्तते। आभ्याम् मुडे चरीकोट मार्गस्य खिम्ती आयोजनास्थले तामाकोशी नद्या कर्तितस्य पुष्पलाल मार्गस्य अवस्थायाः कालिदहस्थानस्य भूस्खलनस्य तामा कौशिकी नद्याः सेतोः अन्येषाम् तत्क्षेत्राणाम् प्रभावितानाम् स्थानानाम् च स्थलगतम् अनुगमनम् विहितम् वर्तते। ह्य चरीकोट स्थाने विहितस्य विमर्शनस्य क्रमे पूर्वाधार विकास मन्त्री सुनिल लम्साल मुडे चरीकोट मार्गस्य स्तरस्य उन्नतये निर्माण व्यवसायीभिः प्राप्तस्य समयस्य अवधि समाप्तोऽस्ति, अतः परम् विधेयरनुसारेण दण्डनस्य प्रक्रिया अग्रे वर्धिष्यते। मार्गस्तरोन्नयनस्य कार्यम् नूतन प्रक्रियातः अग्रे वर्धते चेति अवोचत। तदवसरे विधि न्याय संसदीय विषय मन्त्री सोभिता गौतमः निर्माण व्यवसायिनाम् याचनायाः अनुसारेण क्रयणाधिनियमः संशोध्य निर्माण व्यवसायी मैत्री विहितोऽस्तीत्यतः कार्यम् असम्पादितम् सद विधेयरनुसारेण दण्डनम् भविष्यतीति अगदत्। नैरन्तर्यस्य वृष्टेः पश्चात् दुरापन्नस्य भूस्खलनस्य कारणेन नागमा गमगढ़ी मार्गखण्ड पूर्णतः अवरुद्धो वर्तते। मुगु जनपदस्य छायानाथ रारा नगरपालिकायाः अष्टमवडा क्षेत्रस्य झ्यारीखोलास्थाने परह्य शनिश्चरवासरे दुरापन्नस्य विपुलमात्राया भूस्खलनस्य कारणेन नागमा गमगढ़ी मार्गखण्ड पूर्णतः अवरुद्धो वर्तते। मार्गमा शाखा कार्यालयस्य अनुसारेण भूस्खलनम् विपुलमात्रायाम् सदपि भूस्खलनस्य अपसारणस्य कार्यम् तत्कालम् प्रारब्धम् वर्तते। मार्गस्य पूर्णरूपेण सञ्चालनाय दिनद्वयात् दिवसत्रयम् यावत् आवश्यकानि भवन्तीति अनुमितम् अस्ति। कृषि वन पर्यावरण मन्त्री गीता चौधरी वन वातावरण कृषि जल भूमिनाम संरक्षणस्य विषयाः उच्चैः प्राथमिकतायां स्थापनीयाः इत्यत्र बलं ददाति। धनुषा जनपदस्य धनुषाधाम नगरपालिकायाः वन कार्यालये पूर्वे द्युहबीते विमर्शने वृक्षारोपण कार्यक्रमे च मन्त्री चौधरी वन पर्यावरणयोः संरक्षणेन विना मानवानाम् अस्तित्वस्यैव संकटे निपतनस्य सम्भावनया प्राकृतिक स्रोतसाम संरक्षणाय सर्वैः पक्षैः दायित्ववायवीर्भाव्यमिति उदैरयत्। नेपाली कांग्रेस दलस्य सभापतिः गगन कुमार थापा दलम् एकतायाः कृते सहमतेः उन्मुखम् अस्तीति सूचयति। दलैकतायाः कृते प्रभावं स्रष्टुं स्थानीय स्तरस्य प्रतिनिधिभिः ह्यः काष्ठमण्डपे सम्भूते मेलने सभापति थापा वर्तमान समाह्वयानां प्रतिकरणाय दलैकता अपरिहार्य अस्तीत्यतः एकतायां प्रभावसर्जकं कार्यं न कर्तुं सर्वान् अन्वरुणत्। तदवसरे सभापतिः थापा असन्तुष्ट नेतृभिः विमर्शनानन्तरं कार्यदलं निर्माय सूक्ष्मरूपेण सहमतेः प्रारूपम् अन्वेष्टुं चतुस्सदस्यीयं कार्यदलं दिनद्वयस्य अभ्यन्तरे निर्मास्यते चेति असूचयत्। इति समाचाराः।